इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः डॉक्टर गणेश हेगडे। प्रधानमन्त्री श्री नरेन्द्र मोदी उक्तवान् यद् भारतम् प्रत्येकम् आह्वानम् अधितर्तुम् क्षमताम् स्थापयति अथ वन्दे मातरम् इत्यस्य गीतस्य भावना एव देशाय तद्बलम् ददाति। सः अवदत् यद् वन्दे मातरम् केवलम् गीतम् वा स्तोत्रम् वा नास्ति अपितु जनान् स्वकर्तव्यम् प्रति जागरणस्य प्रेरणास्रोतः अस्ति। आत्मनिर्भर भारतस्य स्वप्नम् साकारयताम् जनानाम् कृते वन्दे मातरम् प्रेरणारूपेण तिष्ठति इति सः रेखाङ्कितवान्। प्रधानमन्त्रिणा ह्यः लोकसभायाम् राष्ट्रियगीतस्य वन्दे मातरम् इत्यस्य 50th वार्षिकोत्सवस्य चर्चायाः अवसरे एतदुक्तम्। इदम् राष्ट्रगीतम् बंकिमचन्द्र चट्टोपाध्यायेन 18th सप्तपञ्चाशत्तमे वर्षे लिखितम् वर्तते।
भारत हर चुनौतियों को पार करने में सामर्थ्य है। वंदे मातरम के भाव की वो ताकत है। वंदे मातरम ये सिर्फ गीत या भावगीत नहीं, ये हमारे लिए प्रेरणा है, राष्ट्र के प्रति कर्तव्यों के लिए हमें जगजोड़ने वाला काम है और इसलिए हमें निरंतर इसको करते रहना होगा। हम आत्मनिर्भर भारत का सपना लेकर के चल रहे हैं, इसको पूरा कर रहा है।
चर्चायाः आरम्भम् कुर्वन् श्रीमोदी अवदत् यत् वन्दे मातरम् इत्यस्य मन्त्रः सम्पूर्णदेशाय शक्तिम् प्रेरणाञ्च यच्छत्, अनेन स्वतन्त्रता आन्दोलनम् ऊर्जया परिपूरितम्। लोकसभाध्यक्षेण ओम् बिर्लावर्येण उक्तम् यत् अस्याम् चर्चायाम् आहत्य 66 सदस्याः भागम् गृहीतवन्तः। सः अवदत् यत् सदनस्य सर्वे सदस्याः अर्धरात्रिम् यावत् वन्दे मातरम् गीतस्य विषये चर्चाम् कर्तुम् कथम् एकत्रिताः अभवन् इति सम्पूर्णः देशः साक्षीभूतः अभवत्। सः आशाम् प्रकटितवान् यत् सदने एतादृशाः रचनात्मकाः चर्चाः निरन्तरम् भविष्यन्ति। संसदा स्वास्थ्यसुरक्षया राष्ट्रियसुरक्षा उपकरविधेयकः 20/25 इत्यस्य अङ्गीकारः कृतः। अवधेयम् यत् अस्मिन् विधेयके केन्द्रसर्वकारेण अधिसूचितस्य पानमसाला इति ताम्बूलसामग्र्याः उपरि अन्यवस्तूनाम् उत्पादनस्य च उपरि उपकरम् आरोपयितुम् प्रस्तावः वर्तते। उपकरेण प्राप्तम् धनम् जनस्वास्थ्याय राष्ट्रियसुरक्षायाः च कृते उपयुज्यते। राष्ट्रपतिपदासीना द्रौपदी मुर्मुः अद्य नवदिल्ल्याम् 2024 वर्षस्य विशिष्टानाम् निपुणशिल्पिनाम् सम्मानम् कृत्वा हस्तशिल्पपुरस्कारान् प्रदास्यति। वस्त्रमन्त्रालयेन विज्ञप्तौ उक्तम् यत् एताः प्रतिष्ठिताः राष्ट्रियपुरस्काराः असाधारणकलाप्रावीण्यतायाः उत्सवम् कुर्वन्ति तथा च भारतस्य समृद्ध विविध हस्तशिल्प परम्परायाः संरक्षणाय प्रचाराय च सर्वकारस्य प्रतिबद्धताम् रेखाङ्कयन्ति। नागरिक विमानन मन्त्री श्री राममोहन नायडुः अवदत् यद् अद्यतनीय विमानयान संकटस्य कृते इण्डिगो एकमात्रम् उत्तरदायी अस्ति, एवम् इण्डिगो संस्था स्वकर्तव्येषु असफला अभवत्। डीडी न्यूज इति वार्तामाध्यमस्य विशेष वार्तालापे वदन् श्री नायडुः अवदत् यत् इण्डिगो इत्यस्य दुर्व्यवस्थापनम् अद्यतनीय विमानयान अवरोधस्य विलम्बस्य च कारणं वर्तते। इण्डिगो एयरलाइन्स् इत्यनेन नागरिक विमानन महानिदेशालयस्य कारण प्रदर्शन सूचनायाः प्रतिक्रिया दत्ता। इण्डिगो इत्यनेन स्थितिः अत्यन्तम् असुविधाजनकः इति वर्णयित्वा स्वग्राहकानाम् असुविधायाः कष्टस्य च क्षमायाचना कृता। तन्मध्ये नागरिक विमानन मन्त्रालयस्य सचिवः समीर कुमार सिन्हा इत्यनेन उक्तम् यत् अधुना विमानयान सेवाः प्रायः सामान्यताम् प्राप्ताः सन्ति। सः अवदत् यत् इण्डिगो इत्यनेन ह्यः 18 विमानयानानि प्रचालितानि, यद्धि तुलनायाम् सामान्य सञ्चालनस्य समीपे वर्तते। क्रिकेट क्रीडायाम् एकदिवसीय क्रीडात्रय श्रृंखलायाम् 2-1 इति अंकानाम् अन्तरालेन दक्षिणाफ्रिका दलम् विरुध्य विजयम् प्राप्तवता भारतदलेन अद्य आरभ्यमाण पञ्चक्रीडा T20 इति 20x20 अन्ताराष्ट्रिय क्रिकेट श्रृंखलायाः प्रथमे क्रीडाद्वन्द्वे कटकनगरस्य बाराबती क्रीडाङ्गणे दक्षिणाफ्रिका दलम् विरुध्य क्रीडिष्यते। भारतीय मानक समयानुसारम् सायम् 7 क्रीडाद्वन्द्वम् आरप्स्यते इति वार्ताः।